सर्वेषां स्वागतम्. इदानीं ध्येयमन्त्रम् उक्त्वा वर्गम् आरम्भं कुर्मः. का वक्तुम् इच्छति ध्येयमन्त्रम्?
भगिनी,
वदतु.
पठामि संस्कृतं नित्यं,
वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्यं तनु कुर्याम विश्वं शान्ति समन्वितम्. भगिनी, फादर् प्लीज.
ॐ शान्ति शान्ति
शान्तिः.
हरिः ॐ श्री
गुरुभ्यो नमः. हरिः ओम्.
अस्तु, इदानीं गृहपाठं पश्यामः. यावत् तावत् यथा तथा विषये सन्देहः अस्ति वा, संशयः अस्ति वा?
न भगिनि,
न. अस्तु, अस्तु, उत्तमम्. सो अत्र नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति. सो अत्र प्रश्नः उदयति कियत् इति. कियत् कियत् इत्युक्ते हौ मच्, कियत् यावत्. सो उदाहरणार्थं सरोवरे कियत् जलम् अस्ति, वयं किञ्चित् जलम्, अधिकं जलम् इति वक्तुं शक्नुमः. परन्तु यावत् जलं नद्याम् अस्ति तावत् जलं सरोवरे नास्ति, अथवा यावत् जलं तस्मिन् सरोवरे अस्ति.
उल्टान भगिनि, यावत् जलं समुद्रे अस्ति तावत् जलं नदी नास्ति.
नद्यां नास्ति. उत्तमं. यावत् जलं,
यू सेड द अदर वे अराउंड, सो हैड,
व्हाट डिड आई से?
यू सेड यावत् नद्याम् अस्ति तावत् समुद्रे नास्ति.
आई मेंट सरोवरे नास्ति, सॉरी. धन्यवादः. यावत् जलं नद्याम् अस्ति तावत् जलं सरोवरे नास्ति. और वी कैन से यावत् जलं तस्मिन् सरोवरे अस्ति तावत् जलं एतस्मिन् सरोवरे नास्ति. सो अत्र तोलनं यदा वयं कुर्मः तदा यावत् तावत् योजयामः. अस्तु, यथा तथा. यथा तथा कथम् इति प्रश्नस्य उत्तरम् अस्ति. भवान् कथं कार्यं करोति, अहं तथा कार्यं न करोमि. उदाहरणार्थं भवती कथं गायति, अहं सम्यक् गायामि अथवा अहं सम्यक् न गायामि इति उत्तरं भवेत्. भवेत् इत्युक्ते इट् कुड् बि, भवेत्. परन्तु तोलनं कृत्वा वदामः चेत् भवती यथा गायति तथा अहं न गायामि इति. अस्तु, प्रश्नः अस्ति वा?
तस्मिन् अर्थः किं भगिनि?
तस्मिन् इत्युक्ते दट्, इन् दट् इति.
अस्तु,
तस्मिन् सरोवरे, तस्य पुस्तकस्य. सो सप्तमी विभक्ति, सप्तमी विभक्त्यां सर्वनामपदम् अस्ति तस्मिन् अथवा तस्यां. गतवर्गे अहम् उक्तवती खलु, एतस्यां दीपावल्याम् इति. दीपावल्यां स्त्रीलिङ्गपदं, दीपावल्याम् अहं भारते न अस्मि अथवा भारते न भविष्यामि अथवा भारतं गमिष्यामि दीपावल्यां. सो अत्र तस्यां दीपावल्यां, दट् दीपावलि, दिस् दीपावलि, एतस्यां दीपावल्यां. सो अत्र सर्वनामपदं कार्यं करोति, अत्र सर्वनामपदम्. अस्तु,
धन्यवादः.
अस्तु, गोपिका भगिनी पठति वा मम सहोदरी?
आम्, मम यथा सा भाषणं करोति तथा अहमपि करोमि.
यथा मम सहोदरी सम्यक्, सम्यक् इति कीवर्ड् अत्र. कथम् इति प्रश्नस्य उत्तरं सम्यक् इति. अतः यथा सा सम्भाषणं करोति तथा अहमपि करोमि. उत्तमं भगिनि. सागरि भगिनि, दीर्घकालम् इति अस्ति उत्तरम्.
अस्तु भगिनि, सा दीर्घकालं भाषणं करोति. यावत् सा भाषणं करोति तावत् अहम् अपि करोमि.
उत्तमं, यावत् तावत्. सो अत्र दीर्घकालम् इति अस्ति. उत्तमं भगिनि, बहु उत्तमं. केतकि भगिनि,
यावत् भवती सुन्दरी अस्ति तावत् भवत्याः शाटिका अपि सुन्दरी अस्ति.
अस्तु, अत्र उत्तरं उत्तरं किं भगिनि? भवती सुन्दरी अस्ति इति उत्तरम्. उत्तरं
यस् यस्.
अत्र प्रश्नः कः?
शाटिका.
शाटिका कथम् अस्ति वा कियत् अस्ति वा?
कियत् अस्ति.
कियत् मीन्स् हौ मच् खलु, हौ मच् इस् कियत्.
कथं देन् इट् इस् सुन्दरी. सुन्दरी आल्सो भवती आल्सो सुन्दरी अस्ति. हर शाटिका आल्सो.
उत्तमम् उत्तमं, दट् इस् उत्तमं भगिनि. बट् परन्तु वाट् इस् द क्वश्चन्? कथं भवती कथम् अस्ति? भवती सुन्दरी अस्ति वा? भवती कियत् अस्ति? भवती सुन्दरी अस्ति वा? प्रश्नः कः? कियत् वा कथं वा? कथं कथम् अस्ति चेत् यथा तथा आगच्छति. पुनः वदतु. उत्तमं, यथा भवती सुन्दरी अस्ति.
भगिनि
वदतु भगिनि.
चाट् मध्ये वाट् यु नो वाट्साप् चाट् मध्ये भवती यु गेव् अ क्लारिफिकेशन् सेयिङ्ग् क्वाण्टिटि अण्ड् क्वालिटि. दट् वास् वेरि हेल्प्फुल् इन् डूयिङ्ग् दिस् एक्ससैस्.
Correct, correct.
Till then, you know, I was a little confused.
Yaha athava ya vadati sa athava saha eva unmute karotu. Anye sarve mute madhye gacchantu, kripaya. Dvanihi agacchanti. Vadatu bhagini.
In your WhatsApp chat, you had given a clarification that yavat tavat will refer to quantity. And yatha tatha will refer to quality. Those two words were crucial in helping me understand and doing the exercise. It was very helpful.
Correct, correct. Quantity and quality. Quantity and quality.
Astu Bhagini.
अस्तु, धन्यवादः. सविता भगिनी.
यस् भगिनि.
चतुर्थं वाक्यं करोतु कृपया.
आं भगिनि. मम भगिनी सम्यक् पठति. सा यथा पठति तथा अहं न पठामि.
उत्तमं.
नमस्कारं, परमेश्वर हियर् भगिनी.
स्वागतं परमेश्वर महोदय. अन्य कोऽपि आगच्छति वा?
नमस्कारः भगिनि, उषा.
उषा भगिनि.
नमस्कारः भगिनि, नारायणमूर्ति.
रम्या भगिनी, नारायणमूर्ति महोदय. अन्य?
नमस्कारः भगिनि, दीना.
नमस्कारः भगिनि. नमस्कारः भगिनि.
नाम वदतु कृपया. उमा. उमा उमा रेड्डि खलु?
आं भगिनि.
उत्तमम् आम् आं भगिनी इति उक्तवती उत्तमं भगिनि नो न विगाडेड् खलु यथा सा यथा पठति
तथा अहं न पठामि
सो अत्र क्वालिटि कथं पठति कथं पठति दट् इस् क्वालिटि पठति उत्तमम्
अस्तु
शारदा भगिनि
मम भगिनी दीर्घकालं पठति मम भगिनी कियत् पठति सा यावत् पठति तावत् अहं न पठामि
अत्र कियत् कालं कियत् कालं पठति बट् यु डोण्ट् हाव् टु आस्क् दट् कियत् ओके जस्ट् कीप् इट् इन् युवर् मैण्ड् क्वाण्टिटि क्वालिटि quantity quality and then it answers the question how long manasi sthapayatu uttamam bagini savita abhava sharada abhavat beena bagini
am bagini so the question here would be katham
बीना भगिनि
सोरि बात् देट् सो यथा भवान् उक्तवान् तथा एव अहं कृतवान्
तथा एव अहं कृतवान् उत्तमं सो अत्र देर् इस् नो इण्डिकेशन् लैक् सम्यक् दीर्घकालं नथिङ्ग् लैक् देट् सो यथा भवान् उक्तवान् म्यूट् मध्ये गच्छतु अहं न जानामि कुतः ध्वनिः आगच्छति इति अस्तु उत्तमं श्रीनिवास महोदय
आं भगिनि नम्बर् 7 यथा महाराजः आज्ञापयति तथा सैनिकः कार्यं करोति
उत्तमं यथा कार्यं करोति कथं कार्यं करोति यथा महाराजः आज्ञापयति तथा सैनिकः कार्यं करोति प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् अग्रे अग्रे गच्छामः
भगिनि केन् यावत् तावत् कन्दर्
न भगिनि
यावत् मीन्स् क्वाण्टिटि तावत् मीन्स्
नो न तावत् इस् लैक् कम्पेरिसन् दट् इस् आल्सो क्वाण्टिटि भगिनि
क्वाण्टिटि
यथा
इस् क्वालिटि
क्वालिटि क्वालिटि
तथा इस् आल्सो क्वालिटि
इस् लैक् वेन् यु कम्पेर् भगिनि वेन् यु कम्पेर् यु यूस् लैक् दट्
లైక్ ఇన్ తెలుగు ఎంతో అంత ఎంతో అంత
థాంక్యూ
అవగచ్చతి
అవగచ్చతి
ఉత్తమం
భగిని కిమర్థం యావత్ తావత్ న ఆగచ్చతి దర్ ఇస్ నో ఇండికేషన్ రైట్
యా దర్ ఇస్ నో అత్ర అపి దర్ ఇస్ నో ఇండికేషన్ ఖలు భగిని భవాన్ ఉక్తవాన్ తథా ఏవ अहं कृतवान् यावत् भवान् उक्तवान् तावत् अहं न कृतवान् कार्यं न करोति खलु तत्र
अस्तु
बट् भगिनी वी केन् से हौ मच् हि टाक् दट् मच् ऐ केन् नाट् टाक्
या दट् इस् डिफ्रेण्ट् खलु दट् इस् डिफ्रेण्ट् यावत् सा वदति तावत् अहं न वदामि यावत् महाराजः आज्ञापयति तावत् सैनिकः कार्यं करोति अस्तु या वी केन् आर्ग्यू भगिनि या दिस् इस् ओके यावत् तावत् आल्सो वी केन् आर्ग्यू बट् यथा तथा इस् अ बेटर् फिट् ऐ थिङ्क् बट् यावत् तावत् यु केन् आर्ग्यू अस्तु
धन्यवादः
धन्यवादः परमेश्वर महोदय
ma'am, which one?
Ashtama.
Okay. Mama Adhiga Vibhusha Asti, Amba Chinda Mastu, Putri, Yavat Nahi, Yada, Yavat Khaditam Ichati, Tavat Khadatu.
Yavat Khaditam Ichati, like in Tamil we say, Yavro, Yavro. Yavat avitum kaditum ichati. So atra so atra bibuksha nasti bubuksha bu.
Oh sorry.
Dosha asti atra.
Bibuksha.
Bibuksha nasti bubuksha bu.
But it is written, no?
Yeah, I know. That's what I'm saying. Bu. I made a mistake. It should be
okay.
Bubuksha.
Bubuksha means hunger.
Hunger.
Okay, thank you.
Mama Adhika Bubuksha Asti Amba. So Amba selling Chinta Master Putri, how much ever you want to eat, you eat. Yavat Khaditum Ichati, Tavat Khadatu. Asto. Usha Bhagini?
Aham Bhagini.
Bhavati Dashamam Vakyam Karotu.
Mama, is it Dashamam or Nava?
Navama, sorry.
Mama Amba, Bahuni Khadyani Pachati. Mama Amba Pachati, Tatha Aham Na Pachami.
So, Atra Bhagini quality or quantity? Bahuni Khadyani Pachati.
Quantity.
Hmm.
So it should be Yavat. Mama Amba Bahuni Khadyani Pachati. Yavat Mama Amba Pachati Tavat Aham Na Pachami.
Tavat Aham Na Pachami.
Okay.
Astu. Ramya Bhagini. Dashamam Vakya.
Yada Mama Amba Pachati Tada Aham na pachami.
So Bhavati Yada iti uktavati. Yada iti ukte kem yada tada.
Ruchikaram. Ruchikara bhojanam. So it is quality. So we have to write yada tada.
It's not yada bhagini. Yada tada iti ukte yada aham bharatam agachami. Tada aham mandiram gachami. So atra yatha.
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 Yata mama amba pachati aham tada aham na pachami.
Tata aham na pachami atava aham tata na pachami. Kimapi. Yata tata. Atra ruchikaram. Quality. Iti asti. Katam pachati ruchikaram bhojanam pachati. Quality. Asto. Narayana Murti Mahodaya. Esha.
Esha yavat karyam karoti, yavat anya na karoti.
Uttama. Yavat api samichinam, yatha api samichinam. Yatha sa karyam karoti, tatha anya na karoti. Yavat karyam karoti.
Both quantity and quality, both we can refer.
Both you can add over here. Uttama, Mahodaya. Umar Reddy Bhagini?
Am Bhagini. Janani Vadati.
So Atra, the key word is Samyak.
Samyak. Tatha Tata Janani Vadati.
Pratamam Yatha Janani Vadati.
Ta Janani Vadati. Tata Putra Putraha Karoti. Chet samyak khalu.
Samyak khalu. Yata janani vadati tata putraha karoti che samyak khalu.
Khalu means what mean, Bhagini?
Khalu means it's like saying, is it not? Like Telugu bhashayam katam vadamaha.
exclamation mark. It's an exclamation mark basically, right?
Yeah.
Kada.
Kadu, madam. Kadu.
Kalu is indeed, isn't it, madam? Indeed. Kalu is
indeed. Kalu.
Kalu is exclamation mark.
In different Bhasha, which is almost like Ilya. Like Ilya, la.
Bhagini? Bhagini? Dila? Samanam eva?
Kim Bhagini?
Kalu. Kalu kila samanameva.
Mama. Kalu kila nanu samanameva.
Nanu.
Nanu api samanameva. Kalu kila nanu. Kalu kila. Bhagini vadatu.
Bhagini janani matladinattu ade talli matladinattu putrudu cheyadamu manchidi kadu.
మంచిది కాదు మంచిది మంచిది కాదు
కాదు మంచిది కాదు సమ్యక్ కలు చేత్ కలు అంతే కదా మేడం
నో బట్ యు ఆర్ సేయింగ్ కాదు
కాదు అంటే నాట్
నో రైట్ కాదు మీన్స్ నో
నో
కాదు కాదు మంచిది కాదు కాదు
మంచిది కాదు కాదు
నో దర్ ఇస్ నో కాదు దట్ బగిని దర్ ఇస్ నో నెగటివ్ ఇస్ నాట్ హియర్ ఓకే
కాదు కాదు కదా 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 కాదు కదా ఓకే ఓకే అలా చేయడం కాదు కదా తల్లి మాట్లాడినట్టు పుత్రుడు మాట్లాడితే చేయడం కాదు కదా
మంచిది కదా
నెగటివ్ లేదమ్మా నెగటివ్ నెగటివ్
నెగటివ్ లేదు మంచిది కదా
మంచిది కాదు
మంచిది కాదు కదు కూడా
భగిని దర్ ఇస్ నో కాదు హియర్
కదా కదా
కదా ఆర్ కదు
ఓకే
ఓకే అస్తు So, as Srinivasa Mahodaya says, we can put an exclamation point too, right? Samyak Kalu. So, this is, okay. So, but we generally use a question mark. Astu, Agre Gachamaha. Anya Kopi Astiva?
Malati.
Malati Bhagini. Agrima Vakyam Patatu. अध्यापकः वदति
यथा अध्यापकः वदति तथा छात्राः न कुर्वन्ति बहु कोलाहलः कुर्वन्ति
उत्तमं यथा तथा अस्तु अस्तु गोपिका भगिनि
आम् यथा वयं वदामः तथा शुकः अनुवदति
अस्तु यथा वयं वदामः तथा शुकः अनुवदति अस्तु सागरी भगिनी द प्रीवियस् वन् वदतु
यावत् सा वदति तावत् श्रोतुं मम समयः नास्ति एव
उत्तमं सो अत्र इस् आल्मोस्ट् सेम् सेण्टेन्स् वन् इस् यावत् तावत् दि अदर् वन् इस् यथा तथा
वै इस् दट् ऐ हेव् पुट् यावत् फोर् दट् आल्सो द शुकः सेण्टेन्स् केन् यु एक्स्प्लेन् वै इट्स् नाट्
So here, because it is anuvadati. Anuvadati means to repeat exactly what we say. Oh. So that becomes a matter of quality.
Okay.
But we can argue how much ever we say that the parrot can also say. But yatha tata is a better fit here.
Astu Bhagini, I had put actually a question mark there because I wasn't sure.
Yeah, yeah. I mean, in some instances, we cannot be sure. So, it depends on what we want to express. So, tatra we say, vivaksha anusaram. That means, ya vadati tasya iccha. Tasya iccha anusaram, yava tatava yatha tatra yojayamaha. Astu. Kesiki Bhagini?
And Bhagini, previous one? Yavat sa vadati tavat shrutum mama samayaha nasti eva. That means quantity?
Yeah, definitely quantity. Because they're talking about I don't have time.
Okay.
Quantity eva. Yavat sa vadati tavat shrutum mama samayaha nasti. So, supposing I say yatha sa vadati tatha shrutum, it doesn't make sense, kalo?
I'm forgetting.
Yata sa vadati tatha aham vadami, then it's fine. Then we can argue quantity va, quality va. Parantu atra nischayena quantity eva.
Astu Bhagini.
Astu.
Next, can I visit you?
Aham
sanskrutam samyak avagachami.
Hmm.
Yata aham sanskrutam avagachami, tatha aham vaktum na shaknomi.
यावत् अहं संस्कृतम् अवगच्छामि तावत् अहं वक्तुं न शक्नोमि ऐ वुड् गो वित् यावत् तावत् यावत् तावत्
अस्तु भगिनि
परन्तु भगिनि हियर् सम्यक् इस् द कीवर्ड् राइट् सम्यक् इस् क्वालिटि
क्वालिटि सो ऐ विल् गो वित् यथा I can go with yata or yavat tavat. Both Mahodaya.
Okay, Bhagini. So both I can use, right?
Both we can use, but like what he said, if the keyword is samyak. Aham samyak avagachami. Parantu aham samyak na vaktum shaknomi.
Okay.
Supposing the sentence is not here, then I can say यावत् अहं संस्कृतम् अवगच्छामि तावत् अहं वक्तुं न शक्नोमि
ओके भगिनि सो वी हेव् टु सी विच् वर्ड् इस् इम्पोर्टेण्ट् राइट्
लैक् हौ यु अण्डर्स्टाण्ड् द सेण्टेन्स् सो सम्यक् मीन्स् वि गो वित् यथा अहं संस्कृतम् अवगच्छामि दट् मीन्स् ऐ अण्डर्स्टाण्ड् इट् बेटर् I cannot speak as well as I understand.
Okay.
So with the sentence, it is yatha tatha. Without the sentence, I can go yatha tatha or yavat tavat.
It can indicate both actually.
Exactly. Yeah. It can be
both. It depends on how you want them to understand.
Exactly. So it depends on how, what we want to express.
So that means samyak is a keyword.
Yeah, if you see samyak, it is usually yatha tatha.
So next sentence solves the question. You can put yatha tatha here, next could be avat. More or less, next is solving the problem.
Next is solving the problem. Like. Okay, who is next? Savita Bhagini.
Yes, Bhagini. यथा अहं संस्कृतम् अवगच्छामि तथा अहं वक्तुं न शक्नोमि
यू केन् यूस् देट् आर् वी केन् यूस्
यावत् अहं संस्कृतम् अवगच्छामि तावत् अहं वक्तुं न शक्नोमि
इत्युक्ते अहं अवगच्छामि अहं लैक् द क्वाण्टिटि ओके अहं सो मच् अवगच्छामि परन्तु ऐ एम् ओन्ली दिस् मच् ऐ केन् स्पीक् लैक् देट्
Okay. So, yavat avat is more appropriate then.
Here is more appropriate. Yavat aham samskutam avagachami,
tavat aham vaktum na shaknomi.
Vaktum na shaknomi.
Shaknomi.
Sharada Bhagini?
Aham Bhagini. Sudhirasya kathayam, yatha sudhiraha karoti, अपि अनुकुर्वन्ति
उत्तमं यथा तथा अत्र सम्यक् भवति यथा तथा. अस्तु बीना भगिनी.
आं भगिनि, यावत् मधुरं मम पति इच्छति तावत् सः खादितुं न शक्नोति.
यावत् तावत् यावत् तावत्. अस्तु श्रीनिवास महोदय.
आं भगिनि, यथा मीनाः तरन्ति तथा ते बालकाः अपि सम्यक् तरन्ति.
उत्तमं. यथा तथा यथा तथा. अस्तु परमेश्वर महोदय.
यावत् खादं तस्यां स्थालिकायाम् अस्ति तावत् सा निक्षयेन न खादति.
उत्तमं. यावत् खादति, सो मच फूड् इस् आन् द प्लेट् दट् मच् शी इस् नाट् गोइङ्ग् टु ईट्. यावत् खाद्यं तस्यां स्थालिकायाम् अस्ति निश्चयेन न खादति. उत्तमम्. उषा भगिनि.
पूर्वं भारतीयजनाः यथा संस्कृतेन एव वदन्ति स्म तथा वयमपि वक्तुं प्रयत्नं कुर्मः वा.
Yeah, so atra both will apply.
Either one can go.
Either one can go. Kalo. Yatha samskritena vadanti sma tatha vayam api vaktum prayatnam kurmah athava yavat samskritena eva vadanti sma tavat vayam api vaktum prayatnam kurmah va. Like this those they spoke, you know, the quality as well as quantity. Okay, avagachanti va.
Aam bhagini.
Aam bhagini. Aam
bhagini. 13th prashna.
Adhyapakah
vadati for that we can use yavat adhyapakah vadati tavat chhatrah na kurvanti.
I would go with yatha bhagini, because you know they are doing a lot of noise up there. Kola halaha kurvan.
We can take bahu as the keyword, then yavat fits in there.
Yeah, I guess bahu, but the keyword is they are kola halaha kurvan. So this is how I pictured it. The teacher says, everybody be quiet. The children are not listening. They are making a lot of noise. Yatha adhyapakah vadati tatha chhatrah na kurvante. How will you say yavat?
How many times teacher says that the students are not obeying.
Listening.
Yeah, okay, you can say yavat samayam va.
Yavat samayam, how many times the teacher repeated yavat. The students are not following.
Yeah, if you want to argue, you can argue, okay? But I think yatha tatha is okay. But as long as you understand, Bhagini, okay? The point is, you have to understand what you want to say and say it, okay? And that is the whole point. It's not like this exercise is wrong, right, nothing like that.
Okay,
Bhagini. Little confusion in this. Yeah, I know. Yatha tatha yavat tavat is always like that. But as long as you know what you want to say. For example, can you come up with your own vakyam, Bhagini?
Yada Ramaha vaidyam karoti tata aham na karomi.
And what did you want to say by
yatha, how Rama is treating others?
Uttama.
I am not treating.
Yeah, so as long as you understand, you know, the quality, the way she sings, I cannot sing. Not how long she sings. So there is no confusion there. Hello, understanding, there is no confusion.
यावत् खाद्यां तस्यां स्थालिकायां कृपया आङ्ग्लभाषायाम् अनुवादं करोतु.
अस्तु. So the plate has a lot of food. Okay, as much food there is on her plate, that much she cannot eat, or she won't eat like that.
Khadyam stalikayam, what does it mean?
Khadyam stalikayam, stalikayam, you understand, kalo stalikayam. So tasyam is the sarvanama pada, like I said, right? Etasyam deepavalyam, like that. So
astu smaram idanim smaram.
Tasyam is the sarvanama pada, like when we say tasya pustaka, tasya pustakasya nama, like that. So this is tasyam stalikayam.
In this plate, right, Bhaini?
That plate. Tasya is
that plate. In that plate.
How much for food is on that plate, that much food she cannot eat. What is the Bhagini?
Bhagini, can you give more, another one, so we can make sure that we understand properly?
Okay, so we go to the Abhyasa Pustakam, Bhagini. Abhyasa Pustakam has a lot of exercises. Nadyam yavat jalam asti, tavat sarovare nasti. So this is clear-cut quantity. Yavat tavat.
Right.
Karnatakam yavat vishalam asti. So atra keralam tavat vishalam nasti. Vishalam. When you compare the quantity, so the quantity, it doesn't mean how much, like how big, how strong, everything. Okay, yes, how strong they are. So look at this. Esha yavat karyam karoti. So here yatha can also fit.
Right.
Yeah, so here they want to say how much work they are, how much work this person is doing. Esha yavat karyam karoti.
Tavat.
Tavat aham api karomi. Tavat saha api karoti. So we can change it any way we want. Aham api karomi.
Bhagini?
Swasya
vakyam vadami va?
Vadatu.
यावत् गणेशः मोदकं खादति तावत् मम सखी अपि खादितुं प्रयत्नं कृतवती, परन्तु गणेशः एव
जयते.
जयति.
उत्तम.
यथा तथा अपि वदामि
वा?
यथा वर्णपुष्पः न म्लयति तथा कृष्णाय भक्तिः अपि न म्लयति.
पुनः वदतु. यथा
वर्णपुष्पः, वि से वाडामल्लि इन्
तमिळ्.
यथा वर्णपुष्पं न म्लयति तथा कृष्णाय इन् डिक्षनरि Ma and La joined, Bhagini.
Mlayati, what is Mlayati, Bhagini?
Fade.
Oh, I see.
Fade, Bhagini. How fade. Varna Pushpaha doesn't fade the same way Krishna's bhakti also doesn't fade.
एवं वा अस्तु यथा वर्णपुष्पं न नाशं भवति दिस् वाट् ऐ नो नाशं भवति
अस्तु
नाशं भवति तथा
वर्णपुष्पः पुष्पं यथा वर्णपुष्पं न नाशं करोति तथा कृष्णाय भक्तिः अपि न नाशं करोति
नाशं करोति मीन्स् इट् दट्स् हार्म् टु अदर्स् नाशं भवति
नाशं भवति
so for bhakti you can say nyunam bhavati it doesn't become less krishnasya bhaktih api nyunam na bhavati
how can we if astu bagini
astu agre gachamah so atra here we are talking pure quantity yavat jalam नद्याम् अस्ति तावत् सरोवरे नास्ति सो अत्र यावत् विशालम् अस्ति सो वि आर् टाकिङ्ग् अबौट् स्पेस् ओके यावत् विशालम् अस्ति तावत् विशालं केरलं नास्ति सो अत्र यावत् कार्यं करोति ओके दट् मच् वर्क् सो यु केनाट् एक्स्प्रेस् द वर्क् रैट् सो शी डस् अ लाट् आफ् वर्क् यावत् कार्यं करोति तावत् अहं न करोमि अथवा अहमपि करोमि भीमस्य यावत् धैर्यम् अस्ति सो हियर् आल्सो यु केनाट् मेजर् खलु दीस् थिङ्ग्स् केनाट् बि मेजर्ड् भीमस्य यावत् धैर्यम् अस्ति तावत् धैर्यं कस्य अस्ति
दुर्योधने अस्ति
दुर्योधनस्य अपि अस्ति अस्तु दुर्योधनस्य अपि अस्ति अस्तु सः यावत् वदति दिस् इस् स्ट्रैट् फार्वर्ड् तावत् सा अपि वदति अस्तु मम भगिनी यावत् पठति मधुरं यावत् इच्छति सुधा यावत् क्रीडति सो हियर् देर् आर् डिफ्रेण्ट् मेजर्स् खलु वन् इस् यावत् जलम् One is yavat vishalam, yavat karyam, yavat dhairyam, yavat vadati, yavat patati, yavat ichchati. So these cannot be measured. Asta. So atra yatha tatha. Udaharanam drishtva anantara uchchaihi shabdaihi, uchchitaihi shabdaihi purayata. Asta. Yatha Sachin Tendulkar kridati, tatha aham api अहं न क्रीडामि अथवा अहमपि क्रीडामि कथं क्रीडति यथा क्रीडति तथा यथा भीमसेन जोशी गायति कथं गायति यथा गायति तथा अहं न गायामि अन्यः न गायति कालिदासः काव्यं लिखितवान् यथा तथा मित्रं यथा सः उपायनं करोति ऐम् सारि उपन्यासं करोति यथा बट् इट् केन् बि यावत् आल्सो हियर् बट् इन् दिस् चाप्टर् इट् इस् यथा तथा अस्तु उत्तमम् अस्तु मम अध्यापकः संस्कृतं जानाति यथा मम अध्यापकः संस्कृतं जानाति So can Yavat fit over here?
Yavat?
Aam Bhagini.
Aam. Both can fit over here. Yeah, both can fit. Yatha mama adhyapakaha samskritam janati tatha. Yavat sa janati tatha. Aami ya, tavat. Okay?
Tulan Karish, we can do that, right?
आमामां तोलन् सि ओन्लि वेन् वि डु तोलनं वि डु यथा तथा ओके इफ् यु आर् नाट् डुङ्ग् तोलनम् ऐ केन् जस्ट् मम अध्यापकः सम्यक् संस्कृतं जानाति अथवा मम अध्यापकः अधिकं संस्कृतं जानाति
देन् वि केन् से यथा तथा
ओन्लि वेन् वि डु यथा तथा वि से यथा मम अध्यापकः संस्कृतं जानाति यु हाव् टु फिल् इट् अप् तथा अन्य अध्यापकः संस्कृतं
न जानाति
न जानाति अथवा अन्य अन्य अध्यापकः ततोपि अधिकं जानाति सो वेन् यु कम्पेर् यु केन् बि सेम् लेस् आर् मोर्
मोर्
ओके सेम् लेस् आर् मोर्
यस् गुड् ऐडिया
okay okay yes yes astu agre agre gachamah atra vishayah asti sma iti sundar sundareshah bandhu griham gatva agatavan gatva means sundareshah bandhu griham gachati अनन्तरं सः आगच्छति बन्धुगृहं गच्छति अनन्तरम् आगच्छति
तथा
हि रिटर्न्स् हि गोस् टु द बन्धुगृहं रिलेटिव्स् हौस् अण्ड् देन् हि रिटर्न् अण्ड् देन् आगतवान् तत्र अम्बा पृच्छति अम्बा पृच्छति तत्र मातामहः किं करोति इति तत्र कः कः किं करोति स्म सो वेन् वि यू स्म इस् लैक् पास् कण्टिन्यूस् सो दिस् इस् वर्तमानकाल करोति देन् वि एड् स्म टु इट् इति सः मातरं वदति मातरं मीन्स् टु दि अम्बा अम्बां वदति Okay, I'm going to mute people, so I'm getting a lot of noise. Astu. Atra saha vadati. Mata mahaha dhyanam karoti sma. Which means he was meditating. Atra matulani. Matulani kim karoti स्म अस्तु हू फिनिश् द लास्ट् टैम् शारदा भगिनी वा अथवा सविता भगिनी वा इदानीं बीना भगिनी वदतु मातुलानि मातुलानि इत्युक्ते आण्टि मातुलानि मातुलानि किं करोति स्म
मातुलानि पाकं करोति स्म
पाकं करोति स्म मातुलः मातुलः इत्युक्ते अम्बायाः सहोदरः अम्बायाः सहोदरः मातुलः अम्बायाः सहोदरी सहोदरस्य पत्नी मातुलानि मामा मामि
एक्स्क्यूस् मी ऐ डिड्न्ट् गेट् द वर्ड् इज़् दैट स्म
स्म व्हेन् यू ऐड् द स्म यू आर् सेयिङ्ग् हि वास् डूयिङ्ग् सो इदानीम् अहं वदामि इदानीम् अहं वदामि गतवर्गे अहं वदामि स्म सो वाट् डिड् ऐ से वेन् ऐ से वदामि स्म ऐ वास् स्पीकिङ्ग्
He said that like that, no?
No, I was, so it is like past continuous.
Okay, I was thinking.
Tatra, saha kim vadati ityukte, yada aham bandugriham gatavan, tada matulani pachati sma. Ityukte, sa paktavati iti na. That means she had done.
Okay.
Okay, so she was still doing, continuous.
It's like when I went there, she was cooking.
She was cooking, perfect.
So something similar to was, was speaking.
I was speaking.
I spoke.
I spoke, exactly. So was speaking is past continuous. So we call it tatkalika. Bhutakala. Tatkalika means the action was not completed like that. So I'm saying it in such a way that the action was not completed. Okay, so Matulaha, okay, Bina Bhagini Abhava, Srinivasa Mahodaya. Matulaha, Yada
Matulaha, Pujam Karoti Sma.
Karoti Sma, it's not Kritavan. Karoti Sma, Parameshwar Mahodaya. Rama, Vadatu.
Rama Nidra Karoti Sma.
Sma, Nidram Karoti Sma. Sma.
Nidram Karoti Sma.
Nidram, I didn't hear Nidram. The in.
Sorry, I didn't say that. Sorry, my mistake. Nidram Karoti.
Nidram Karoti Sma. Uttama. Sudha. Usha Bhagini. Sudha.
Sudha. Oh, which is this one? Sudha is who?
This one.
Oh, Sudha Patati Sma.
Patati Sma.
Patati Sma.
Sudha Patati Sma. Rameshah. Yogasana.
Rameshah.
Bhagini Ekanimsha. Ramya Bhagini.
Rameshah Yogasanam Karoti Sma.
Uttama. Yogasanam Karoti Sma. Narayana Murti Mahodaya. Leela. Leela. Narayana Murti Mahodaya.
Pashyati Sma. Pashyati Sma.
Pashyati. No, she is cleaning up color. So.
Looking.
Marjana. Oh, Pachati, that is all finished, Mahodaya. Now we are doing Leela. Leela.
Leela. Khadati Sma.
Atra, she is sweeping. So, Marjanam Karoti Sma. Okay?
Marjanam
Karoti. Marjanam Karoti.
Marjanam Karoti.
Maybe Marjanam Karoti Sma. Marjanam Karoti Sma. Uttama.
Sma. Continue. She has been cleaning.
Cleaning. Marjanam.
This Nirmarjanam comes from this word or what?
Probably.
Okay.
What is it?
Bhagini. Can we use any verb and then say Karoti and then add Sma to it?
Uttama. Like what, Bhagini? It has to have the ending. Like, if you're going to say Patati Sma, you can say Patanam Karoti Sma. Lekanam Karoti Sma. Pakam Karoti Sma. Pachati Pakam Karoti Sma. Astu. Uma Reddy Bhagini. So this is Mata Mahi. Mata Mahi is mother's mother. That is grandmother through the mother's side. Mata Mahi. Mata Mahi.
Mata Mahi. Emantra Medavati.
Astu. Palanam Karoti Sma.
Palanam Karoti Sma.
Palanam Karoti Sma. Astu.
Palanam
Karoti Sma. So,
Bhagini, Sudha Patati Sma. Okay.
Patati Sma.
Patami.
So, yeah, Patami, you had to say Aham Patami Sma.
Sudha Patam.
Patati Sma. Sudha Patati. Sudha Patati Sma. Aham Patami Sma.
Word is sirfa cleaning, marjanim karoti.
Marjanam. Marjanam atava marjayati.
Marjayati.
Or you can say prakshalanam karoti. She's cleaning. Prakshalanam karoti. Sammarjayati. So you can use many, many words. Sammarjayati Sma.
Bhagini, Patati Sma will not come. Patanam Karoti Sma.
Both are okay, Bhagini. Patati Sma.
Okay.
Patanam Karoti Sma.
Bhagini, Karoti means action is continued. And if Kruta 1 means action had finished.
finished. Yeah, yeah, finished. So, so yeah, so I can say hyah makulani okay, so matulah pujam kritavan.
Pujam kritavan.
But if I want to say yada aham matulasya griham gatavati, tada matulah pujam karoti sma. You see the difference? When I use kritavan and when I use karoti sma.
Yes, Bhagini, I got it.
Okay. Astu.
Bhagini?
Okay.
Ma means guessing me.
No, not guessing. She was doing it at that time. She was doing. Telugu bhashayam katam kadam vada pannin.
Chestunaru.
చేస్తూ ఉండెను
ప్రెసెంట్ కంటిన్యూస్ మీన్స్ చేస్తున్నారు పాస్ట్ కంటిన్యూస్ చేస్తూ ఉండెను
అండ్ హౌ డు యు సే కృతవాన్ ఇన్ తెలుగు
కృతవాన్ పాస్ట్ టెన్స్ నో మేడం కృతవాన్
చేశాను
చేశాను
ఓకే ఓకే సో as long as you understand
చేశాను ఇట్ ఇస్ చేశాడు ఇట్ ఇస్ ప్రథమ పురుష
చేశాడు చేశాను అహం
ఓకే సో విల్ గో టు ద నెక్స్ట్ టాపిక్ ఓకే సో అత్ర సో విల్ స్టార్ట్ విత్ స్మ aham purva so the sma can also be used to something we say I used to okay so I can say balya kale aham bharate bharata deshe vasami sma aham purvam bharata deshe vasami sma how will I say for idanim aham america deshe
vasami
there is no sma there okay there is no sma okay so and then so this is another use for sma something I used to do not anymore mama balya kale
it is not a past continuous
this is also past continuous
This is
past continuous patani sma when I say yada
okay
so this is like the recent past but this one was used to so there are two differences used to and past continuous
so asam is if I was and yada aham patishalayam asam If I was in the Patshala.
When I was in Patshala? Yada.
No, yada aham Patshalayam asam, tada sanskritam pathami sma. So asam is what? Bhutakala?
Yeah, this is Bhutakala. But here this is past Bhutakala. We call it Tatkalika Bhutakala. That is past continuous.
Yeah, I got it. Okay.
Bhagini, Prashna.
वदतु भगिनि सो इट बिकेम् फास्ट् टेन्स् बट् सिन्स् ऐ डिन् यूस् यदा दिस् इस् ऐ यूस् okay I'm getting a lot of noise I don't know where it is please try to mute as soon as you finish talking okay please
Bhagini, can I ask a quick question please so is sma used to for description of something in the past
yes
okay brilliant thank you
like like, you know, you can say, in my young age, I used to go to school in a horse-drawn carriage, right? Not many, maybe some of us experienced that. How will you say that?
Yada aham.
Or you can say mama balya kale. Mama balya kale.
Mama balya kale aham shalam.
Ashvashatakayena
shalam gachami sma.
Uttama, gachami sma.
But then if you wanted to say that you were going on the horse carriage and then you arrived at school, then you said the arrived would be the Tavat or Tavati.
Yeah, yeah. So at that time we'll do. But, you know, right now we are talking only about the sma. So let's focus on, because I want to do other topics also. I want to finish up the Abhyasa Pustakam also. Astu Danyavadaha. So we will concentrate on sma today, as well as the Tavatu and all that. Okay, Tva and all that. Okay, Danyavadaha. So please, I don't want to keep telling you. As soon as you finish talking, please unmute, okay? So we can minimize the noise. Thank you. Okay, so let's start. Okay, this again. Okay, so this is, I used to. Purva kale, purvatana kale, Bharata deshe vasami sma. Idanim aham America deshe vasami. यदा अहं पाठशालायाम् आसम् तदा संस्कृतं पठामि स्म. ऐ वास् रीडिङ्ग्. अस्तु, वाट् इस् दिस् रीड्? शिवराजस्य गुरुः रामदासस्वामी तं हिन्द विश्वराजस्य विषये बोधयति स्म. Okay, that's the key word. He was. Astu. Lakshmanaha sarvada ramasya anugamanam karoti sma. So, atra, we can use kritavan also. When I say kritavan, he always followed ramaha. Anugamanam kritavan, anugachati, anugatavan. So this is what Usha Bhagini, you were saying, anugachati, anugamanam karoti, anugamanam kritavan. But when I say anugamanam karoti sma, means he used to, or he was going. So here, since I don't see yada, it is he used to. Okay. Gatavarshe sarve janah karyalayam patashalam cha gachanti sma. Okay. Here I can say they used to. Gatavarshe, they used to. They used to go to office and school. When I say yada, then I'm saying past continuous. Here it is used to. Avagachantiva, how you use it? So can I have some samples as to a Gopika Bhagini? No, Malati Bhagini. Sana Uttavati. Malati Bhagini, can you come up with a sentence with sma?
No, any sentence. So.
Any sentence, Bhagini. Any sentence.
Aham samyak gayati sma. Gayami sma.
Gayami sma. Yada, you have to say when something was happening at that time. Like that. You can say, in yesterday's program, I was singing well. How will you say that?
Shwaha.
Shwaha.
ह्यस्तन कार्यक्रमे
का उत्तम कार्यक्रमे ह्यस्तनकार्यक्रमे
ह्यस्तनकार्यक्रमे अहं सम्यक् गायामः
अहं सम्यक् अहं
अहं गायन्ति
अहं सम्यक्
नाट् गायन्ति सम्यक्
अहं मीन्स् वाट् विल् द एण्डिङ्ग् बि भगिनि अहम्
अहं गायामि
गायामि no no gayami eva
oh gayami gayami
gayami so if you say gasyami it will go to future tense kalo
future tense yeah gayami gayami
so whenever you use sma you have to use vartamana kala so it is actually quite easy
okay
so you have so the sma is used in two places one is to show that something was happening when something was happening like गतदिने और् गतसप्ताहे यदा भवती मम गृहम् आगतवती आल् दट् केन् बि भूतकाल तदा अहं निद्रां करोमि स्म दट् टैम् ऐ वास् स्लीपिङ्ग् ओके दट् इस् पास्ट् कण्टिन्यूस् दि अदर् वन् इस् पूर्वम् अहं सर्वदा निद्रां करोमि स्म बिफोर् ऐ वास् स्लीपिङ्ग् आल् द टैम् ओके दट् मीन्स् ऐ यूस् टु स्लीप् आल् द टैम् सो ऐ वास् स्लीपिङ्ग् आल् द टैम् सो वी केन् यूस् इट् इन् बोत् वेस् बट् यदा तदा नाट् यदा तदा बट् वेन् यु यूस् यदा तदा एण्ड् यु यूस् स्म दट् इस् डेफिनेट्लि पास्ट् कण्टिन्यूस्
ओके
अस्तु भगिनि पृच्छतु भगिनि वि आल्वेस् कम्बैन् ओन्ली वित् वर्तमानकाल बट् इट् इण्डिकेट्स् अ पास्ट् इवेण्ट्
ओके
सो लैक् इफ् ऐ वाण्ट् टु से वेन् यु केम् होम् ऐ वास् कुकिङ्ग् यदा भवान् आगतवान् तदा अहं पाकं करोति स्म ऐ मीन् ऐ एम् सारि पाकं करोति स्म
ओके इफ् ऐ से पूर्वकाले चाणक्य नीतिमयम् अभ्यासं कृत उक्तवान् देट् इस् रैट्
बट् वेर् इस् द क्रियापदं भगिनि किं वदति भगिनि
पूर्वकाले
न उक्तवान् यु केनाट् यूस् खलु यु हाव् टु यूस् वर्तमानकाल प्रसेण्ट् टेन्स्
ओ देन् ऐ केनाट् यूस् पूर्वकाले
नो यु केन् यूस् पूर्वकाले वाट् पूर्वकाले किं वक्तुम् इच्छति वाट् यु वाण्ट् टु से पूर्वकाले
पूर्वकाले चाणक्य
चाणक्यः अस्तु सो पूर्वतनकाले चाणक्यः नीतिविषये वदति स्म वदति सो यु हाव् टु पुट् वर्तमानकाल अण्ड् स्म दट् मीन्स् हि यूस् टु गिव् अ लाट् आफ् टाक्स् आन् नीतिविषये वदति स्म भाषणं करोति स्म लिखति स्म अस्तु स्वागतं गोपिका भगिनि
आम् पूर्वतनकाले पल्लवराजाः मूर्ति पूर्वतनकाले पल्लवराजाः मूर्तितक्षणं कल्पयति स्म
राजाः कल्पयन्ति स्म उत्तमं
कल्पयन्ति स्म
उत्तमं पूर्वतनकाले दे यूस् टु इति अस्तु सो ऐ एम् जस्ट् गोयिङ्ग् टु पिक् पीपल् अट् राण्डम् अस्तु श्रीनिवास महोदय
आं भगिनि
Anything,
Mahodaya. Just to show that you understand, that's all.
Okay. Aham samyak patam patami sma.
Yada, you have to say the situation.
Okay.
Because this is I was studying.
Okay.
When?
Okay. Okay, then we are doing yada also means. On younger days, how do you say?
Balyakale. Mama balyakale.
Balyakale. Samyak kridami sma.
Uttamam. Balyakale. Aham samyak kridami sma. So I would like to specify these things so there is no ambiguity.
Okay. Aham samyak football kridami sma. I don't know what you call football in Sanskrit.
You can say what is say for kicking?
Father.
उत्तमं पादकन्दुकं क्रीडामि स्म बाल्यकाले अहं पादकन्दुकं सम्यक् क्रीडामि स्म उत्तमं बाल्यकाले उत्तमम् अस्तु का वदति का वक्तुम् इच्छति वी कैन हैव
मम यौवनकाले अहं नाटकशालायाम् अभिनयं करोति स्म
करोमि स्म उत्तमं महोदय
करोमि स्म
उत्तमं बहु उत्तमं बहु उत्तमम् अस्तु यदा तदा उपयुज्य कः वक्तुमिच्छति अथवा कः वक्तुमिच्छति अस्तु अहम् आह्वयामि उषा भगिनी यदा इति आरभ्य वाक्यं वदति वा यदा सा मम गृहम् आगच्छति तदा
अहं यदा भवान् मम पूर्वकाले पश्यति अहं सुन्दरम् अस्मि स्म
सुन्दरी अस्मि स्म सुन्दरी
उत्तम
वृद्धा अपि सुन्दरी एव खलु अस्तु
भगिनी शैले ट्रै वन्
उत्तमं वदतु
यदा प्रधान अध्यापकः कक्षायां गच्छति तदा छात्राः कोलाहलं करोति स्म
उत्तमवाक्यम् अस्तु सर्वे अवगच्छन्ति खलु ओके सो यु सो एदसे पूर्वकाले बाल्यकाले दट् इस् मै ओन् थिङ्ग् अत्र नास्ति परन्तु पूर्वं यदा इति उपयोगं कुर्मः चेत् स्पष्टं भवति इट् इस् क्लियर् अस्तु अग्रे गच्छामः अस्तु बालकः गृहं गच्छति प्रथमं हस्तप्रक्षालनं करोति अनन्तरं श्लोकाभ्यासं करोति ओके वाक्यम् अवगच्छन्ति खलु प्रथमम् अनन्तरम् इति अम्ब कार्यालयं गच्छति तत्र किं करोति प्रथमं सङ्गणकम् उद्घाटयति अनन्तरं सन्देशं पठति ओके देवः सङ्गणकं कम्प्यूटर् कम्प्यूटर् एण्ड् देन् शी रीड्स् द न्यूस् आर् मेसेज् आर् वाट् एवर् मेसेज् सन्देशं पठति देवः मन्दिरं गच्छति प्रथमं पादप्रक्षालनं करोति अनन्तरं घण्टां वादयति
एक्स्क्यूज मी देवक देव व्हाई शुड दे देव देवं फोटो मंदिरम
नो नो दिस इज द नेम ऑफ अ पर्सन देवः अच्छा
अच्छा ओके ओके
लाइक देव ना देयर इज अ नेम देव लाइक दैट हां या दिस इज अ कंफ्यूजिंग सेंटेंस अस्तु भिक्षुकः काशीं गच्छति सः चिन्तयति प्रथमं गङ्गास्नानं करोमि अनन्तरं विश्वेश्वरदर्शनं करोमि इति जनकः वार्तापत्रिकाम् उद्घाटयति प्रथमं क्रीडावार्तां पठति अनन्तरं वाणिज्यवार्तां पठति अस्तु सो प्रथमम् अनन्तरम् अवगच्छन्ति खलु प्रथमम् अनन्तरम् अस्तु अग्रे अग्रे गच्छामः अत्र त्वान्तं बालकः प्रथमं गृहं गच्छति अनन्तरं पठति सो वाक्यद्वयम् अस्ति एकवाक्यं कुर्मः चेत् गत्वा इति आगच्छति गच्छति इति पदं गत्वा भवति सो बालकः एव कार्यद्वयं करोति बालकः गृहं गच्छति बालकः अनन्तरं पठति अतः बालकः गृहं गत्वा पठति गृहं गत्वा पठति गत्वा गच्छति वीट्ल पोरां पडिक्रां सो द पोरां पडिक्रां बिकम पोय पडिक्रां வீட்டுக்கு போய் படிக்கிறான் தெலுங்கு ஆல்சோ கிருபையா
போயிடுவேன்
பாலகாக கிரகம் கத்வா படத்தி వెళ్ళేసి కల వెళ్ళేసి
ఇంటికి వెళ్ళి ఇంటికి వెళ్ళి
బాలకుడు ఇంటికి వెళ్ళి
ఇంటికి వెళ్ళినాక చదివాడు ఇంటికి వెళ్ళినాక చదివాడు
ఇల్లు కాదు స్కూల్
స్కూల్ బట్ నో బట్ హియర్ ఇట్ ఇస్ గృహం హియర్ ఇట్ గృహమేవ
ఇంటికి వెళ్ళి ఇంటికి వెళ్ళినాక చదివాడు
అస్తు సో ద నెక్స్ట్ వన్ బాలక గృహం గచ్చతి అనంతరం లిఖతి గృహం గత్వా లిఖతి
గత్వా మీన్స్ హావింగ్ గాన్
హావింగ్ గాన్ ఆర్
ఇంటికి వెళ్ళి చదివాడు
అస్తు సో అత్ర బాలకః గృహం గచ్చతి ఖాదతి గత్వా ఖాదతి సో అత్ర గత్వా పిబతి సో ద గత్వా డజంట్ చేంజ్ గచ్చతి గత్వా ద ఫస్ట్ క్రియాపదం విల్ టేక్ ద త్వా ఎండింగ్ త్వా బాలకః గత్వా ఖాదతి గత్వా పిబతి బాలకః దిస్ వన్ వి ఫినిష్ సో నౌ బాలిక బాలికా ప్రథమం దానం కరోతి అనంతరం శ్రాంతా భవతి యాక్చువల్లీ దిస్ షుడ్ బి దర్ ఇస్ దిస్ ఇస్ ఎ రాంగ్ సెంటెన్స్ ఇట్ షుడ్ బి ధావనం ఓకే ప్రథమం ధావనం కరోతి అనంతరం శ్రాంతా భవతి ఓకే సో ద కరోతి విల్ బికమ్ కృత్వా ओके कृत्वा प्रथमं जलं पिबति अनन्तरं क्रीडाङ्गणं गच्छति जलं पीत्वा पिबति विल् बिकम् पीत्वा पीत्वा गत्वा कृत्वा पीत्वा पठति अनन्तरं निद्रां करोति पठित्वा त्वा ओके वेन् यु यूस् त्वा इट्स् लैक् आफ्टर् डूयिङ्ग् दिस् शी डिड् दट् After doing this or having done that, she does that. So, gacchati will become gatva. Patati, patitva. Likati, likitva. Hasta prakshalanam karoti. Only the karoti will get kritva. Hasta prakshalanam kritva. Khadati. खादित्वा पिबति
भगिनी अर्थं किं हस्त प्रक्षालनम्
वाशिङ्ग् हेण्ड्स्
अस्तु भगिनि धन्यवादः
अस्तु इदानीं बालकः प्रथमं गृहं गच्छति अनन्तरं पठति अनन्तरं लिखति अनन्तरं हस्तप्रक्षालनं करोति अनन्तरं खादति अनन्तरं पिबति अनन्तरं किं करोति सो हौ विल् यु पुट् आल् दि सेण्टेन्सेस् इन् टु वन् सेण्टेन्स् बालकः गृहं
गृहं गत्वा
पठित्वा
पठित्वा लिखित्वा
लिखित्वा
प्रक्षाला प्रक्षालनं कृत्वा खादित्वा
खादित्वा पीत्वा
किं करोति
किं करोति हु वाण्ट्स् टु ट्रै सम्बडि एल्स् वाण्ट् टु ट्रै महोदय यु वाण्ट् टु ट्रै
विच् आर् दि सेम्
वदतु
बालकः प्रथमं गृहं गत्वा
सो महोदय अट् दिस् टैम् वी डोण्ट् वाण्ट् टु से प्रथमं जस्ट् से गृहं गत्वा
बालकः गृहं गत्वा कमा कमा वी केन् पुट् मीन् कमा
कमा
पठित्वा कमा लिखित्वा कमा हस्तप्रक्षालनं कृत्वा कमा खादित्वा
खादित्वा
खादित्वा कमा अनन्तरं किं करोति
अनन्तरं किं करोति नो न न पीत्वा किं करोति एव पीत्वा
निद्रां करोति
निद्रां करोति उत्तमं पीत्वा निद्रां करोति अथवा दूरदर्शनं पश्यति वदतु भगिनि
प्रातःकाले पूजां कृत्वा पाकं कृत्वा भोजनं खादित्वा
खादित्वा किं करोति भोजनं खादित्वा
निद्रां करोति
करोमि करोमि सो 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 यु केन् एड् सो मेनि त्वा 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 इन् दि एण्ड् यु हेव् टु एण्ड् विद् अ नार्मल् क्रियापदं करोति अथवा करोमि अथवा कुर्मः अथवा कृतवान् Something else you have to end. You cannot end with twa. So what Ketaki Bhagini did was a very good example because she spoke about herself, aham. Even when we speak about ourselves, we can still use twa, twa. Aham gatwa. Aham ग्रन्थालयं गत्वा पठित्वा लिखित्वा हस्तप्रक्षालयं कृत्वा खादित्वा पीत्वा गृहं गत्वा एव्रिथिङ्ग् अण्ड् देन् गृहम् आगच्छामि. सपोसिङ्ग् ऐ वाण्ट् टु से बालकः, इट् इस् अगेन् गत्वा पठित्वा लिखित्वा कृत्वा खादित्वा पीत्वा. सपोसिङ्ग् ऐ वाण्ट् टु से सर्वे छात्राः, सर्वे छात्राः पाठशालां गत्वा पठित्वा लिखित्वा हस्तप्रक्षालनं कृत्वा खादित्वा पीत्वा गृहं गच्छन्ति. सो वाट् डू वी से फार् आल् दीस् इफ् इट् डजन्ट् चेञ्ज् अट् आल्? वाट् डू वी काल् दीस्? अव्ययम्. सो दिस् नेवर् चेञ्जेस् वेदर् इट् इस् बालकः गत्वा पठित्वा लिखित्वा कृत्वा आल् देट् अथवा बालिका अथवा अहम् अथवा ते अथवा वयं गृहं गत्वा पठित्वा लिखित्वा हस्तप्रक्षालनं कृत्वा खादित्वा पीत्वा आनन्दम् अनुभवामः वा. सो वि केन् यु केन् पुट् एनी सेण्टेन्स् इन्. सो दिस् वन् इट् नेवर् चेञ्जस् अव्ययम्. ओके, सो दिस् इस् आक्चुलि अ वेरि फन् थिङ्ग् टु डु. गोपिका सेस् इट् इस् अ फेवरेट्. अस्तु, सो वि हेव् सम् विशेषरूपाणि. ददाति दत्त्वा, गृह्णाति गृहीत्वा. So this is the problem, knowing the rupam. But if you use it often enough, you will remember. Prakshalayati, prakshalya. So I'll talk about this later. So let's go to our abhyasa pustakam. Let's do this one, okay? Ekanimsham. Saha bhojanam khadati karyalayam gacchati. अस्तु, सागरी भगिनी शीघ्रं शीघ्रम् आगच्छतु.
भोजनं खादित्वा कार्यालयं गच्छति.
गच्छति सः. सविता भगिनी, सारी, द नेक्स्ट् वन्. सा
पूजां कृत्वा पाठं पठति.
अस्तु, शारदा भगिनी, सेम् सेण्टेन्स् वित् अहम्.
अहं पूजां कृत्वा पाठं पठामि.
उत्तमं. सो द कृत्वा इट् डजन्ट् चेञ्ज्. अस्तु, बीना भगिनी, वयं अण्ड् देन् भूतकाल भगिनी, भूतकाल.
भूतकाल, ओके. वयं पूजां कृत्वा पाठं पठिष्यामः.
पठिष्यामः, दट् इस् भविष्यत् काल. उत्तम.
पठिष्यामः,
ऐ जस्ट् वाण्ट् टु डेमोन्स्ट्रेट् द कृत्वा डजन्ट् चेञ्ज्. उत्तम. अस्तु, श्रीनिवास महोदय, बालिका इति वदतु. बालिका
जी बहिनी, सारी, वन्स् अगेन्.
बालिका वीणां वादयति इति, बालकः इति अस्ति खलु, बालिका इति वदतु.
बालिका वीणां वादित्वा आनन्दम् अनुभवति.
अस्तु, सो इट् गोस् आन् लैक् दिस्. ओके, सो लेट्स् गो टु द अभ्यासपुस्तकम्. सो अत्र I'm going Abhyasa Pustakam because everybody has it, kalo, so it's easy. Sa shalam gacchati patam patati. Sa shalam gatva patam patati. So you just go through this, okay? Kridangane patati rodanam karoti. Patitva. Kurvanti, even with bahuvachanam, it is kritva eva. Te karyam kritva shrantaha bhavati. सो अत्र भूतकालम् अस्ति अहं फलं खादितवान् जलं पीतवान् ओके सो अत्र जलं अहं फलं हौ विल् यु चेञ्ज् दिस् परमेश्वर महोदय अहं फलं
खादित्वा
खादित्वा
फलं खादित्वा जलं पीतवामि
न पीतवान् एव बिकास् दिस् इस् भूतकाल खलु भूतकाल पीतवान् पीतवती एव समीचीन सो द पायिण्ट् इस् एकवचनं सः बहुवचनं ते कुर्वन्ति शिशुः पुल्लिङ्ग पतति पतित्वा अहम् अहमपि खादित्वा एव एण्ड् दिस् इस् भूतकाल खादितवान् खादित्वा एव एण्ड् जस्ट् लैक् हौ बीना भगिनी से भविष्यत् काले अपि सपोसिङ्ग् ऐ वोण्ट् यूस् दिस् इन् द भविष्यत् काल अहं फलं हौ विल् यु से अहं फलं
खादित्वा
खादित्वा जलं पास्यामि अस्तु सो वी केन् यूस् दिस् ईवन् वेन् यु यूसिङ्ग् एन् आर्डर् लोट्लकार ईवन् वेन् यु गिविङ्ग् एन् आर्डर् किञ्चित् पानीयं पिबतु अनन्तरं गच्छतु हौ विल् वि से देट् किञ्चित् एलिमिनेट् अनन्तरं किञ्चित् पानीयं पीत्वा गच्छतु वेन् यु से पिबतु अनन्तरं गच्छतु अथवा पानीयं पीत्वा गच्छतु सो द सेम् थिङ्ग् फार् सा आल्सो सा पत्रं लिखितवती प्रेषितवती सा पत्रं लिखित्वा
प्रेषितवती
ओन्लि द फस्ट् वन् विल् चेञ्ज् द लास्ट् वन् विल् रिमेन् द सेम् ओके आल् द क्रियापदं बिफोर् दट् विल् चेञ्ज् द लास्ट् वन् विल् नाट् चेञ्ज् भवन्तः वार्तां शृण्वन्ति भवन्तः विषयं जानन्ति हौ विल् वि चेञ्ज् शृण्वन्ति
श्रुत्वा
भवन्तः वार्तां श्रुत्वा ओके सो द नेक्स्ट् थिङ्ग् ऐ एम् सारि ऐ एम् रशिङ्ग् बट् यु नो ऐ हाव् टु डू सम् थिङ्ग्स् ओके ऐ जस्ट् वाण्ट् टु शो यु सम्थिङ्ग् सो यु केन् डू इट् अट् होम् एल् वन् हेण्ड् औट् एकनिमिषम् So this will be a good homework. Grihapata rupena kurvantu. So atra patati patitva. Kridati kriditva. Bhavati bhutva. Okay. I'm sorry, I'm going to take a few more minutes. I just want to show you something else. Okay. Sorry. What happened to yep ask
what should we par pashyamah
drishtva
pashyamah prishtva
drishtva okay so here balika griham agacchate balika khadate so whenever we have some letters added to the original verb. Okay, this is the original verb is the dhatu. We add something before that is called upasarga. Okay, that is called the upasarga. When we have the upasarga, it won't be twa, it'll be ya, it'll become agatya. Balika griham agatya खादति सो बालिका पुस्तकं नयति अनन्तरं पठति सो बालिका पुस्तकं नीत्वा पठति ओके बट् इट् इस् गोयिङ्ग् टु ब्रिङ्ग् इट् पुस्तकम् आनयति पठति इति अस्ति चेत् पुस्तकम् आनीय पठति अवगच्छन्ति वा उपसर्गयुक्त क्रियापदं इफ् अ क्रियापदं हेज् अ उपसर्ग देन् इन् सि गच्छति वि रेड् इट् एस् गत्वा सो इट् इट् वोन्ट् बि आ गत्वा but it will be agatya so nayati is neetva but anayati aniya okay same thing prakshalya prakshalayati prakshalya same thing svikaroti svikritya but pujam karoti kritva eva kritva eva okay so let's go back to our here okay so here patati patitva so on top we have it as tva and lyap lyap is when you have a upasarga tva is when it is the original dhatu so we have patati there is nothing before it so patitva kriditva nothing before it kriditva bhutva bhutva लिखित्वा खादित्वा मिलित्वा हसित्वा पठित्वा नीत्वा नयति नीत्वा देन् यु पुट् आनयति सो इट् इस् आनीय ओके सो वेर् इस् द नेक्स्ट् ह्य गच्छति गत्वा आगच्छति आगत्य ओके सो उत्थाय तिष्ठति स्थित्वा It's not here, but it is stitva. Uttishtati uttaya. Okay. So here, upavishati, upa is an upasarga. So it is upavishya. Other way it is tektva, drishtva, datva, prishtva, kritva. Okay. So kritva, karoti, kritva. Svikaroti, svikritya. Okay, and that's all I want to say. This is a fun topic, and once you understand, it is fun. Okay, so all the rupams are here. Knowing the rupams could be a little bit difficult, but as with everything, with practice, we will be able to get everything. Okay, so any questions about the technique behind it?
उपविशति उपसर्गं वाट् इस् इट् भगिनि उपविशति
उप इस् द उप उपसर्ग उप विशति उप इस् द उपसर्ग उपविश्य सेम् थिङ्ग् वि हाव् निद्राति निद्राय नि इस् द उपसर्ग सो इट् बिकेम् निद्राय ओके so we will do I'll send you a lot of homework with the homework you will understand please do the homework astu krishna ha santiva idani nasti che viramama ha astu om sarve
sarve santu niravaya sarve bhadrani pashyantu ma kashche dukha bhagvave om shanti 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 hari om gurubhyo namaha hari om
dhanyavaad
dhanyavaad bhagini
धन्यवादः पुनर्मिलामः
धन्यवादः भगिनि
धन्यवादः
पुनर्मिलामः
धन्यवादः